हरिणां हरिणी सुवर्ण रजतस्त्रजा चंद्रां हिरण्मयीं लक्ष्मी जात वेदो मावह जात वेदो लक्ष्मी मनप गामिनी यस्याम हिरण्यं विन्देयं गामश्वं पुरुषानहं अश्वपूर्वां रथमध्यां हस्तिनाद प्रमोदिनी श्रियं देवी मुपहवे श्रीमार देवी जुषता काम्सोस्मितं हिरण्य प्रकारामार्दं ज्वलन्तीं तृप्तं तर्पयन्तीं पद्मे स्थितं पद्मवर्णां तामिहोपहवे श्रियं चन्द्रां प्रभासं यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीं शरणं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वं व्रणे वर्णे तपसोधि जातो वनस्पतिस्तव वृक्षोथ बिल्वः तस्य फलानि तपसानुदन्तु यान्तरायाश्च बाह्या लक्ष्मीः देव सखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिं वृद्धिं ददातु मे अक्षुत्पिपासां मलां ज्येष्ठां लक्ष्मीं नाशयाम्यहम् अभूतिं समृद्धिं च सर्वां निर्णुद मे गृहात् पुष्टां करीषिणीं ईश्वरीं सर्वभूतानां तामिहोप हवे श्रियं मनसः काममाकुतिं वाचः सत्यं श्रीमहि पशूनां रूपमन्यस्य मयि श्रीः श्रयतां यशः Thank you. अर्ध मेन प्रजा भूता मयि संभव करदम। श्रियं वासय मे कुले मातरं पद्ममालिनी। आपः सृजन्तु स्निग्धानि चिक्लीतवस मे गृहे, निच देवीं मातरं श्रियं वासय मे कुले। आर्द्रं पुष्पकरणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जात वेदो महावह।
ओम हिरण्य वर्णां हरिणे सुवर्ण रजत स्कजा चन्द्रां हिरण्मयीं लक्ष्मीं जात वेदो महावह।
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जात वेदो मावह। तां मावह जात वेदो लक्ष्मी मनपगामिनीं यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान् विन्देयं पुरुषानहम्। प्रयतो भूत्वा जुहुयादाज्य मनवहम् सूक्तं पञ्चदशरचं च श्रीकामः सततं जपे। पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलाय साक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व। पद्मानने पद्मौरु पद्माक्षि पद्मसंभवे तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम्।
ॐ हिरण्य वर्णां हरिणे सुवर्ण रजत स्कजा चन्द्रां हिरण्मयीं लक्ष्मीं जात वेदो महावह।
अश्वदायी गोदायी धनदायी महाधने धनं मे जुषतां देवी सर्वकामाश्च देहि मे। पुत्र पौत्र धनं धान्यं हस्ते श्वाश्वतरी रथं प्रजानां भवसि माता आयुष्मन्तं करोतु मे।
ॐ हिरण्यवर्णां हरिणे
धनं वायुर् धनं सूर्यो धनं वसुः धनं इन्द्रो बृहस्पतिर् वरुणो धनं विश्विना सोमं पिब सोमं पिबतु वृत्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न च मात्सर्यं न लोभो न शुभामतिः भवन्ति कृत पुण्यानां या श्री सूक्त जापिना सरसिज निलये सरोज हस्ते धवल तरांशुक गंध माल्य शोभे भगवती हरि बल्लभे मनोज्ञ त्रिभुवन भूति करि प्रसीद महियं विष्णुपतिं क्षमां देवीं माधवीं माधव प्रियां लक्ष्मीं प्रिय सखीं भूमिं नमाम्य च्युत बल्लभाम् विद्महे विष्णु पत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् तन्नो लक्ष्मीः प्रचोदयात् आनन्दः कर्दामः श्री दश्चिक्लीत इति विश्रुतः ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवतामतः ऋणरोगादि दारिद्र्य पापक्षुदप मृत्यवः भयशोक मनस्ताप नश्यन्तु मम सर्वदा सम्मायुषम् आरोग्यम् आविधाच्छोभमानं महीयते धनं धान्यं पशुं बहु पुत्र लाभं शतसंवत्सरं दीर्घमायुः